इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी आदौ मुख्यवार्ताः प्रधानमन्त्री नरेन्द्र मोदी अद्य सायं आभासीय माध्यमेन परमरुद्रः इत्याख्यं सुपर कम्प्यूटिंग सिस्टम संगणकतन्त्रस्य ऋतुविज्ञानस्य ऋतुदशाविज्ञानस्य कृते च उच्च गुणवत्तायुक्त संगणकस्य उद्घाटनं विहितवान्। हरियाणायाम् एकस्मै चरणाय, जम्मू कश्मीरे च तृतीयाय अन्तिमाय च चरणाय विधानसभा निर्वाचनाय प्रचाराभियानं तीव्रं जातम्। फ्रांसदेशीयः राष्ट्रपतिः इमैनुअल मैक्रों इत्येषः संशोधितायां संयुक्त राष्ट्र सुरक्षा परिषदि स्थायि सदस्यत्वेन भारतं प्रविष्टुं समर्थनं स्वीयं प्रकटितवान्। अपि च बैडमिंटन प्रतिस्पर्धायां भारतीय क्रीडकः किदाम्बी श्रीकान्तः मकाउ मुक्तस्य पुरुषैकल वर्गस्य प्रागुपान्त्यचक्रे प्रविष्टवान्। इदानीं वार्ताः विस्तरेण प्रधानमन्त्री नरेन्द्र मोदी अद्य सायं आभासीय माध्यमेन परमरुद्रः इत्याख्यं सुपर कम्प्यूटिंग सिस्टम संगणकतन्त्रस्य ऋतुविज्ञानस्य ऋतुदशाविज्ञानस्य कृते च उच्च गुणवत्तायुक्तं संगणकस्य उद्घाटनं कृतवान्। ध्येयमस्ति यत् प्रायः त्रिंशदुत्तरैक कोटि रूप्यकैः निर्मितः परमरुद्रः इत्याख्यः समुच्च गुणवत्तायुतः संगणकः राष्ट्रिय सुपर कम्प्यूटिंग मिशन इत्यभियानान्तर्गतं दैशिकरूपेण एव विकसितो वर्तते।
मातृभूमि की रक्षा के लिए आप सब त्याग और सहनशीलता के असाधारण उदाहरण प्रस्तुत किए। पूरा देश आप सबका सम्मान करता है। मातृभूमि की रक्षा के गौरवशाली कर्तव्य को आप दृढ़तापूर्वक निभाते हैं।
यथा राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती, राष्ट्रपतिः द्रौपदी मुर्मू वर्या अद्य लद्दाखस्य सियाचिन शिविरस्य भ्रमणं कृतवती। असौ तत्र सियाचिन हिमशिखर सीमक्षेत्रे नियुक्तैः सैन्याधिकारिभिः साकं सम्भाषणम् आचरितवती। श्रीमती मुर्मुः सैनिकान् सम्बोधयन्ती समाह्वानपूर्णे विषमे पारिस्थितिकतन्त्रे राष्ट्ररक्षणकार्यार्थं सैन्यभटानां तेषां श्लाघां कृतवती। अमुना तेषां सैन्यभटानां परिवारजनान् प्रति आभारः प्रकटितः। राष्ट्रपतिः सियाचिन आधारशिविरे निर्मित युद्धस्मारके हुतिंगतेभ्यः वीरभटेभ्यः हार्दिक श्रद्धाञ्जलीन् समार्पयत्। ध्येयमस्ति यत् पूर्वराष्ट्रपतेः डॉ अब्दुल कलामस्य श्रीरामनाथ कोविन्दस्य च पश्चात् सियाचिन हिमशिखरस्य यात्राकर्त्री तृतीया राष्ट्रपतिः संवृत्तास्ति। एतद्धि विश्वस्य सर्वोच्चं सैन्यक्षेत्रं वर्तते, यत्र भारतीय सैन्यबलं राष्ट्ररक्षण परं वर्तते। हरियाणायाम् एकस्मै चरणाय, जम्मू कश्मीरे च तृतीयाय अन्तिमाय च चरणाय विधानसभा निर्वाचनाय प्रचाराभियानं तीव्रं जातम्। भाजपेति दलस्य वरिष्ठ नेता प्रधानमन्त्री नरेन्द्र मोदी च अद्य आभासीय माध्यमेन हरियाणायाः भाजपेति दल कार्यकर्तृभिः साकं संवादं विहितवान्। हरियाणायां 90 विधानसभासनेभ्यः मतदानं अग्रिममासस्य पञ्चमे दिनांके निर्धारितम् अस्ति। जम्मू कश्मीर विधानसभा निर्वाचनानां अन्तिमचरणस्य प्रचाराभियानं सजवं प्रवर्तते। गृहमन्त्री अमित शाहः जम्मू कश्मीरस्य ऊधमपुर जनपदे जनसभाम् एकां सम्बोधितवान्। अमुना कठुआ क्षेत्रेऽपि जनसभाः कृताः। जनान् सम्बोधयन् श्रीशाहः तत्रत्यान् जनान् भाजपादलाय मतदानार्थं विलोभितवान्। अपरत्र प्रधानमन्त्री श्रीनरेन्द्रमोदी दलस्य प्रचाराभियानं तीव्रीकर्तुं सितम्बर 28 जम्मूं गच्छति। लोकसभायां विपक्षनेता राहुल गांधी ह्यो जम्मू कश्मीर वास्तव्यैः साकं वार्ताचितिं कृतवान्। कांग्रेसदलाय मतयाचनां च कृतवान्। पीपल्स डेमोक्रेटिक पार्टीति दलस्य अध्यक्षा पूर्व मुख्यमंत्री महबूबा मुफ्ती च अपि ह्यस्तने जम्वां निजदलस्य प्रत्याशीनां समर्थने पथप्रदर्शनीम् आचरितवती केन्द्रशासित प्रदेशे एतस्मिन्। जम्मू कश्मीरे अन्तिमचरणस्य विधानसभा निर्वाचनं सर्वेभ्यो राजनीतिक दलेभ्यो अतिशयमेव महत्वपूर्णम् अस्ति। अन्तिमचरणार्थं अक्टूबर प्रथमायां चत्वारिंशद् विधानसभासनानां कृते मतदानम् आयोक्ष्यते। अस्य चरणस्य अन्तर्गतं जम्वाः चतुर्विंशतिः जम्मूकश्मीरस्य षोडश विधानसभासनेष् मतदानम् आयोक्ष्यते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अद्य उत्तरप्रदेश प्रशासनेन प्रातः निर्बाधतया 55.1% होरां यावत् स्वच्छताभियानं समारब्धम्। अभियानमिदं अक्टूबर मासस्य द्वितीय दिनांके महात्मा गांधिनः 55.1%तमे जयन्त्यवसरे सम्पन्नतां प्राप्स्यति। स्वभाव स्वच्छता, संस्कार स्वच्छता इत्यस्मिन् विषये आधारितस्य अभियानस्य उद्देश्यं नगरीय क्षेत्रेष् स्वच्छतायाः पर्यावरण जागरूकतायाः संवर्धनमिति अस्ति। मुख्यमंत्री योगी आदित्यनाथः नगर विकास विभागाय अभियानस्य अस्य सफलतां सुनिश्चेतुं निर्देशम् अपि प्रदत्तवान्। प्रधानमन्त्री नरेन्द्रमोदी ह्यः नवदिल्ल्यां निजावासे भारतीय चतुरंग ओलम्पियाड समूहस्य क्रीडकैः सह वार्तां समाचरितवान्। ध्येयं वर्तते यत् भारतीय दलेनानेन हंगरीदेशे बुडापेस्ट नगरे आयोजिते 24,000 ओलम्पियाड नामाभिधेयके द्वन्द्वे महिला पुरूषयोः दलेन उभयोः वर्गयोः स्वर्णपदकं विजितम्।
कोई देश विकसित बनता है तो सिर्फ खजाने से नहीं बनता है, तो उसके पास कितने पैसे हैं, कितने उद्योग हैं, जीडीपी कितना, इतने से नहीं बनता है। हर फील्ड में वो दुनिया में महारत होनी चाहिए, वैसे ही खेल में भी मैक्सिमम गोल हमारे बच्चे कैसे लाएं, ये जब होता है इतने सारे वर्टिकल, तब देश महान बनता है।
लेबनानस्य बैरूत स्थितेन भारतीय दूतावासेन इज़राइल देशस्य हिजबुल्ला गुल्मस्य च मध्ये विवर्धमानं संघर्षं निध्याय भारतीय नागरिकाः परामृष्टाः सन्ति यत्ते यथाशीघ्रं लेबनान देशं त्यजेयुः, अथ च न केऽपि भारतीयाः मध्ये युद्धं लेबनानस्य यात्रा नैव कुर्युः, येन तेषां प्राणसंकटं नैव भवेत्। अपि च दूतावासेन एतदपि भणितं यत् ये जनाः अत्रैव केनापि कारणेन निरुद्धाः सन्ति उत स्थातुं विवशाः सन्ति चेत् ते आवश्यकतां विना गृहाद् बहिः नैव गच्छेयुः, सावधानतया कार्यं विदध्युः, निरन्तरं दूतावासस्य सम्पर्के तिष्ठेयुः चेति। ध्येयमस्ति यत् सद्यस्तनीने इज़राइल देशीय वायवीयाक्रमणे लेबनान देशस्य 58.5% जनाः पञ्चतां प्राप्ताः सन्ति, मृतकेष् 50 बालकाः अपि समाविशन्ति। अमेरिका फ्रांसाभ्यां सहितैः तत्सहयोगिभिः देशैः इज़राइलस्य हिजबुल्लाह इत्यस्य च मध्ये युद्धस्य समेधनानन्तरं इज़राइल लेबनान सीम्नि एकविंशतिः दिनेभ्यः तत्कालमेव संघर्ष विरामस्य आह्वानं कृतमस्ति। एतद्विषये अमेरिका, फ्रांस, यूरोपीय संघ, जर्मनी, सऊदी अरब, कतर, संयुक्त अरब अमीरात समेतैः अन्यैरपि देशैः साकं वक्तव्यमिदं प्रख्यापितम् अस्ति। फ्रांस देशीयः राष्ट्रपति इमैनुअल मैक्रों इत्येषः संशोधितायां संयुक्त राष्ट्र सुरक्षा परिषदि स्थायी सदस्यत्वेन भारतं प्रविष्टुं समर्थनं स्वीयं प्रकटितवान्। श्रीमैक्रो इत्येषः अद्य प्रातः न्यूयॉर्क नगरे संयुक्त राष्ट्र महासभायाः 79वें चर्चासत्रे वार्ताम् इमां कथितवान्। फ्रांसदेशीयेन अनेन राष्ट्रपतिना सबलं प्रत्यपादयत् यत् भारत, जर्मनी, जापान, ब्राजील देशाः स्थायी देशाः भवेयुः इति। अपि च बैडमिंटन प्रतिस्पर्धायां भारतीय क्रीडकः किदाम्बी श्रीकान्तः मकाऊ मुक्तस्य पुरूषैकल वर्गस्य प्रागुपान्त्यचक्रे प्रविष्टवान्। प्रागुपान्त्यचक्रे श्रीकान्तेन आयुष शेट्टी 21-13 च इत्यांकान्तरालेन पराजितः। इति वार्ताः।